सर्वेभ्यो नमः. अस्माकं विषयः अस्ति सप्तमी भक्ति इति. गतवर्गे किञ्चित् अभ्यासः कृतवन्तः, परिचयः अपि जातं गतवर्गे. तत्र पुटसङ्ख्या 63 तः 66 तावत् वयं कृतवन्तः. तत्र किमस्ति, त्रिषु लिङ्गेषु अकारान्त इकारान्त उकारान्त इति रूपाणि दृष्टवन्तः गतवर्गे. तत्र किञ्चित् पुनस्मरणं कृत्वा, गृहपाठमपि कृत्वा, अग्रे अभ्यासः प्रयोगः इति भवति. अस्तु, प्रथमतया पश्यामः तत्र सप्तमीभक्तिरूपं कीदृशं भवति इति. तत्र उषा भगिनी, तत्र गजः तस्य पदस्य सप्तमीभक्तिर् त्रिषु वचनेषु
महाराजः
गजः
सप्तमीभक्ति
नाम केवलं सप्तमीभक्ति, किन्तु त्रिषु वचनेषु
गजे गजयोः गजेषु.
गजे गजयोः गजेषु, समीचीनं. इदानीं भानुचेतनी महोदय, तत्र आकाशः
आकाशे आकाशयोः आकाशाणां.
न सप्तमी भक्ति महोदय, आकाशे
आकाशेषु.
समीचीनं समीचीनं. तत्र भ्रमः भवति किमर्थम् इति कोऽपि वदति वा, किमर्थम् आकाशयोः तदनन्तरम् आकाशाणाम् इति मनसि आगच्छति?
द्वितीय द्विवचनस्य अतः आकाश समानमेव अस्ति.
कुत्र कुत्र
षष्टि यन्त्रमपि
षष्टि अपि सप्तयोः. तत्र द्विवचने किं भवति, आकाशयोः आकाशयोः इति. अतः एव आकाशयोः आकाशाणाम् इति भवति, किन्तु अत्र आकाशेषु इति वक्तव्यम् अस्ति. समीचीनं. अस्तु, अग्रे वदतु महोदय.
अधिकस्थले सप्तम्य षष्ट्याः उपयोगं बहु सामान्य कुर्मः. अतः
सत्यं 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 सत्यं. अतः तत्र मनसि किञ्चित् क्लेशः भवति, किन्तु तत्र रूपं समानमस्ति आकाशयोः इति पदं यदि पश्यामः, तत्र वाक्यं दृष्ट्वा एव वक्तुं शक्नुमः यदि तद् सप्तमी अस्ति वा अथवा षष्टिः अस्ति इति. सत्यं, षष्टि बहुत्र पश्यामः, किन्तु सप्तमी अपि दृश्यते. अस्तु, अग्रे वेणुगोपाल महोदय, ध्वजः इति.
ध्वजः भजे भजयोः ध्वजेषु.
समीचीनम्. अस्तु, गीताञ्जलि भगिनी, विद्यालयः
विद्यालये विद्यालयोः विद्यालयेषु.
विद्यालयेषु, समीचीनं. शोभा भगिनी, मार्गः
मार्गे मार्गयोः मार्गेषु.
समीचीनं. रघुपति महोदय, वृक्षः
वृक्षः वृक्षे वृक्षयोः वृक्षेषु.
इति अस्ति. अस्तु, तत्र किञ्चित् आकारान्त अपि आकारान्त स्त्रीलिङ्ग तदपि एकवारं कुर्मः. तत्र उषा भगिनी, लता इति.
लता लतायां लतयोः लतासु.
लतासु, समीचीनं. भानुचेतनी महोदय, गीता इति.
गीतायां गीतयोः गीतासु.
हा अस्तु वेणुगोपाल् महोदय अम्बा इति
अम्बा अम्बायाम् अम्बयोः अम्बासु
अम्बायाम् अम्बयोः अम्बा
अम्बायाम् अम्बयोः अम्बासु
हा समीचीनं हा गीताञ्जलि भगिनी शाखा
शाखा शाखायां शाखयोः शाखासु शाखा
समीचीनं हा शोभा भगिनी पत्रिका
पत्रिकायां पत्रिकायोः पत्रिका
पत्रिकयोः
पत्रिकयोः क्षम्यतां महोदय पत्रिकयोः पत्रिकासु
पत्रिकासु समीचीनं हा रघुपति महोदय उत्पीठिका
उत्पीठिका उत्पीठिकायाम् उत्पीठिकाय उत्पीठिकयोः उत्पीठिकासु
हा अस्ति इदानीम् अस्तु तत् स्त्रीलिङ्गम् अपि पुल्लिङ्ग किञ्चित् पुनस्मरणं जातम् अस्तु इदानीम् अग्रे तत्र गृहपाठं यदासीत् तत्र द्वितीय अभ्यासे पुटसङ्ख्या 67 मध्ये तत्र द्वितीय अभ्यासे केवलम् एकतः दशपर्यन्तं करोतु इति आसीत् हा इदानीं तद् सर्वं कृत्वा अग्रे गच्छामः अस्तु तत्र शोभा भगिनी प्रथम द्वितीय अभ्यासः तत्र पठित्वा करोति वा पेज् 67 मध्ये
आं महोदय एकनिमिषम् अत्र ब्रह्मसरोवरः कुरुक्षेत्रं
तत्र एकवारम् अभ्यासः अपि पठतु हा नो चेत् हा तत्र द्वितीय अभ्यासः रक्तवर्णे यत् वाक्यम् अस्ति तत् एकवारं
पेज् 66 महोदय
67 उपरि अस्ति खलु आवरणे
विद्यमानस्य शब्दस्य सप्तमी विभक्तिरूपेण रिक्तस्थानानि पूरयत
अस्तु
ब्रह्मसरोवरः कुरुक्षेत्रम् इति दत्तमस्ति ब्रह्मसरोवरः कुरुक्षेत्रे अस्ति
हा ब्रह्मसरोवरः कुरुक्षेत्रे अस्ति समीचीनं तत्र भगिनी तत्र रक्तवर्णे यत् वाक्यं भवत्या पठितं तत्र आवर्णे इति पदस्य विभक्ति का
सप्तमी अस्ति
सप्तमी हा आवर्णे द्विवचने
आवर्णे आवर्णयोः आवरणेषु
आवरणेषु समीचीनं भगिनि हा अस्तु अत्रापि कुरुक्षेत्रे इति अस्ति द्विवचने किं भवति
कुरुक्षेत्रयोः
हा कुरुक्षेत्रेषु समीचीनं हा अस्तु अग्रे रघुपति महोदय
आम् महोदय नर्तकाः मञ्चः नृत्यन्ति नर्तकाः मञ्चे नृत्यन्ति
हा तत्र
अकारान्त
मञ्चयोः
मञ्चेषु
मञ्चेषु समीचीनं हा अस्तु उषा भगिनी अग्रे
हा महोदय गङ्गोत्री हिमगिरिः अस्ति इकारान्त पुंलिङ्ग अस्ति गङ्गोत्री हिमगिरौ अस्ति
हा हिमगिरौ हरिः हरौ अग्निः अग्नौ गिरिः गिरौ समीचीनं भगिनि हा तत्र द्विवचने किम् अस्ति
हरिः हरौ हर्योः हरिषु हिमगिरिः हिमगिरौ हिमगिरिषु
हिमगिरौ द्विवचने हर्योः इति खलु
हर्योः हिमगिर्योः हिमगिरिषु
हिमगिरिषु समीचीनं भगिनि हा अस्तु अग्रे भानुचेतनी महोदय अग्रे
नीतिकथाः पुराणानि सन्ति नीतिकथाः पुराणानौ सन्ति
पुराणानि इति कीदृशपदमस्ति
बहुवचनं महोदय
लिङ्गं किं लिङ्गं किं
पुराणम् इति नपुंसकलिङ्गं
नपुंसक अकारान्त नपुंसकलिङ्गं वनम् इति शब्दः
मुख्यमिदं महोदय पुराणेषु नीतिकथाः पुराणेषु सन्ति.
हा समीचीनं महोदय. हा पुराणानि पुराणेषु. पुरा एकवचने किं भवति सप्तमी एकवचने?
पुराणे पुराणयोः पुराणेषु.
हा समीचीनं महोदय. हा अस्तु. हा अग्रे वेणुगोपाल् महोदय.
आं महोदय. हंसाः तडागः तरन्ति. हंसाः तडागे तरन्ति.
हा हंसाः तडागे तरन्ति. हा तत्र तडागे इति तत्र एकवचने अस्ति. बहुवचने
तडागयोः.
द्विवचने तडागयोः. हा हा बहुवचने
तडागेषु.
तडागेषु समीचीनं महोदय. हा गीताञ्जलि भगिनी अग्रे.
अश्वाः युद्धभूमौ धावन्ति.
हा
अश्वाः युद्धभूमौ धावन्ति. युद्धभूमौ युद्धभूम्योः युद्धभूमेषु.
युद्ध
भूम्यौ
भूमि शब्द
भूमि
एकवारम् एकवारं एकनिमिषं महोदय. रूपं वदतु भगिनि तत्र किम् अस्ति?
भूमि भूमौ भूम्योः भूमिषु.
भूमिषु इति. हा तत्र भूमिः इति. हा इदानीं वदतु महोदय भूमिः इति कीदृशपदं?
भूमि स्त्रीलिङ्ग वा महोदय? स्त्रीलिङ्ग वा
इति मन्ये महोदय.
मतिशब्दवत्
मतिशब्दवत् इति मन्ये. किन्तु तत्र रूपद्वयम् अस्ति भूमौ अपि यदि न जानीमः.
भूम्यामपि
भूम्यामपि अस्ति. भूम्यामपि
अस्ति.
हा भूम्यामपि अस्ति. हा समीचीनं. हा अस्तु अग्रे शोभा भगिनि.
सिंहाः गुहाः. सिंहाः गुहासु वसन्ति.
हा तत्र गुहा इति स्त्रीलिङ्गपदम् इति दृष्टवन्तः खलु.
गुहायां गुहयोः गुहासु.
हा समीचीनं. हा समीचीनं भगिनि. हा गुहासु हंसाः गुहासु वसन्ति. अस्तु समीचीनं भगिनि. हा रघुपति महोदय अग्रे.
वृक्षायुर्वेदः अस्ति. वृक्षायुर्वेदः अग्निपुराणे अस्ति. अग्निपुराणे वृक्षायुर्वेदः अग्निपुराणौ अस्ति. अस्तः वृक्षायुर्वेदः अग्निपुराणेषु सन्ति. सारी अग्निपुराणेषु अस्ति.
सर्वत्र अस्ति एव. अस्ति एव. कर्तृपदम् एकवचने अस्ति इति कृत्वा. हा अस्तु समीचीनं महोदय. हा अग्रे उषा भगिनि.
कृषकाः केदाराः बीजानि वपन्ति. कृषकाः केदारेषु बीजानि वपन्ति.
हा समीचीनं भगिनि.
अकारान्त पुंलिङ्ग अस्ति.
अकारान्त पुल्लिङ्गपदं समीचीनं. हा अस्तु.
केदारः इत्युक्ते क्षेत्रं.
क्षेत्रम् अत्र एतत् फील्ड् फील्ड् इति मन्ये. हा यत्र व्यवसायः भवति इति केदारः.
अस्तु महोदय.
हा अस्तु अग्रे वनचित्रं महोदय भवान् एव.
फलानि जलं निपतन्ति. जलम् अकारान्त नपुंसकलिङ्ग. फलानि जले निपतन्ति.
हा फलानि जले निपतन्ति. समीचीनं महोदय. हा जले इति अस्तु. हा अग्रे वेणुगोपाल् महोदय.
सोपादेशः कदम्बरी अस्ति. शुकनासोपादेशः कदम्बर्याम् अस्ति.
हा शुकनासोपदेशः कादम्बर्याम्
अस्ति.
कादम्बर्यां नद्यां नदी नद्यां तत्र कादम्बरी कादम्बर्याम् इति एकवचने द्विवचने किं भवति
कादम्बर्योः
अपि
बहुवचने कादम्बरी कादम्बरीषु
कादम्बरी पूर्वस्मिन् पश्यतु नद्यां नद्योः नदीषु इति
नदीषु अस्तु
नदीषु
कादम्बरीषु
अतः बहुवचने किं भवति रूपं समीचीनं महोदय अस्तु गीताञ्जलि भगिनी अग्रे
महोदय अर्थः कः शुकनासोपदेशः
कादम्बर्याम्
अस्ति
कादम्बरी इति ग्रन्थ अस्ति भवेत्
बाणभट्टस्य
कथा
अस्ति तत्र किमपि शुकनास उपदेशः इति शुकनास उपदेशः तद् किमिति न जानामि किन्तु तद् तस्मिन् तस्मिन् ग्रन्थे अस्ति इति कादम्बर्याम् इति अस्तु
धन्यवादः
भवती एव अग्रे इदानीं
धन्यवादः पक्षिणः निडानि निडान्यां
निडानि इति कीदृशपदं
पुंलिङ्ग महोदय
निडानि
निडानि मति मतिवत् मति नो
न न भगिनि पुराणानि
निडानि नपुंसकलिङ्ग नो
नीडं
नीडं
निडानि नपुंसकलिङ्ग अस्ति महोदय
बहुवचने अस्ति भगिनि तत्र
ओ नीडं ओके ओके अहम् अत्र पुंलिङ्ग लिखामि महोदय
अस्तु 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 किन्तु पुराणानि नीडानि इति
नीडानि ओके नीडेषु पक्षिणः नीडेषु निवसन्ति
समीचीनं समीचीनं अस्तु शोभा भगिनी अग्रे
सैनिकस्य जानु जानु इति पदं कथं भवति जानु जानुनि जानुनि सप्तमी न जानामि महोदय क्षम्यतां
महोदय
गुरुवत्
एतत् किञ्चित् तत्र
ह्रस्व ह्रस्व
न भगिनि तत्र एतत् नपुंसकलिङ्गपदमस्ति पूर्वस्मिन् पुटे मधु इति कृतवन्तः खलु
मधु मधु
मधुषु इति अन्तिम पेज् 66 मध्ये अधोभागे अस्ति बाटम् आफ् द पेज्
जानु मधु नमस्ते महोदय क्षम्यतां
चिन्ता मास्तु भगिनि चिन्ता मास्तु
जानुनि जानुनोः जानुषु
तत्र मधु इति पदमस्ति तस्य अधोभागे एव जानु इति अस्ति खलु भगिनि
आं महोदय सैनिकस्य जानुनि व्रणः अभवत्
समीचीनं जानुनि जानुनोः जानुषु
जानुषु
इति रूपं समीचीनं भगिनि रघुपतिमहोदय अग्रे
एकनिमिषं महोदय विमानानि विमानानि सञ्चरति
सञ्चरन्ति
इति सञ्चरन्ति विमानानि सञ्चरन्ति विमानानि खम् अस्ति खम् अस्ति आकाश खमे खमे खम् अस्ति वा
पुस्तकं पुस्तके पुस्तकं नपुंसकलिङ्गपदमस्ति महोदय हकारान्त नपुं नपुंसकलिङ्गपदे
अस्तु अस्तु के के सञ्चरन्ति
के सञ्चरन्ति
के अस्तु
अत्र के के सञ्चरन्ति इति प्रश्नः अपि भवति अस्तु वंशी सुधा भगिनी अग्रे
महोदय मम एकः प्रश्नः सैनिकस्य जानु ओह द्विवचने द्वे जानु अस्ति न महोदय
किन्तु एक एकजानुनि किमपि अभवत् इति तदपि
सैनिकस्य इति एकवचनमेव अस्ति महोदय
सैनिकस्य इति तत्र किमपि विषयः नास्ति किन्तु जानु किं किम् अभवत् वृणः अभवत् वृणः द्वयोः जानुनोः सर्वदा भवति वा अथवा तादृशं किमपि नास्ति खलु
आम् महोदय
एकत्र भवति इति
द्वयोः अस्ति चेत् वृणौ अस्ति वा
वृणौ इति वक्तुं शक्नुमः वृणोः जानु तत्र वृणः वृणो वृणौ इति भवति अथवा अथवा वृणः अपि जानुनोः वृणः अभवत् तदपि वक्तुं शक्नुमः स्थलद्वये एतत् अभवत् इति तदपि वक्तुं शक्नुमः अस्तु वंशीसभगिनी भवती एव अग्रे
पञ्चदश बिन्दु सन्यासी देहः अभिमानं न करोति सन्यासी देहे अभिमानं न करोति
इदानीं देह देहे इति तस्य द्विवचनरूपं बहुवचनं
देहयोः देहयोः देहेषु पुल्लिङ्गशब्दवत्
समीचीनं समीचीनं भगिनि अग्रे उषा भगिनि
सद् इति शब्दः सद्भावः प्रयोगम् अर्हति सद् इति शब्दः सद्भावे प्रयोगम् अर्हति अकारान्तः पुंलिङ्ग अस्ति महोदय
सद्भावः समीचीनं समीचीनं भगिनि अग्रे भानुचतनी महोदय
भक्तः शरणम् अन्विच्छति भक्तः बुद्धिः शरणम् अन्विच्छति भक्तः बुद्धौ शरणम् अन्विच्छति
समीचीनं
बुद्धौ बुद्धौ बुद्धयोः
हरिः बुद्धिषु समीचीनं महोदय अग्रे वेणुगोपाल
महोदय अत्र बुद्ध्यामपि सम्यक् अस्ति
अत्र
स्त्रीलिङ्गमेव अस्ति इति अहं चिन्तयामि महोदय
बुद्धिः बुद्धिः स्त्रीलिङ्गपदमेव अस्ति सत्यम् अतः रूपद्वयम् अस्ति तत्र सत्यं भगिनि सत्यं वेणुगोपाल महोदय वदतु
परमेश्वरः पृथिवी पुण्यः क्षम्यतां पुनः यातते
परमेश्वरः परमेश्वरः पृथिवी पुण्यः गन्धः
पुण्यः गन्धः अस्तु महोदय क्षम्यतां परमेश्वरः पृथिव्यां पुण्यः गन्धः पृथिव्यां पुनः गन्धः
पुण्यः
परमेश्वरः पुण्यः पुण्यः
पुनः
पृथिव्यां पुण्यः गन्धः
इति तदेव वाक्यमस्ति परमेश्वरः पृथिव्यां पुण्यः गन्धः इति
पुण्यः गन्धः अस्तु
इति वाक्यं समीचीनं महोदय तत्र पृथिव्याम् इति द्विवचने बहुवचने किं भवति
पृथिव्योः पृथिवीषु
पृथिवीषु समीचीनं महोदय
पृथिवीषु
अस्तु गीताञ्जलि भगिनी अग्रे
क्षम्यतां महोदय यतिः संसिद्धिः पुनः यतते संसिद्धिः इकारान्त पुल्लिङ्ग
स्त्रीलिङ्ग अस्ति किन्तु किन्तु यदि लिङ्गं न जानीमः तत्र ह्रस्वैकार अस्ति इति कृत्वा हरिशब्दवत् अपि वक्तुं शक्नुमः तत्र सप्तमी तदपि रूपम् अस्ति.
किन्तु अत्र स्त्रीलिङ्ग पदम् अस्ति संसिद्ध्याम्
अपि तदपि वक्तुं शक्नुमः. तत्र वाक्यं पूर्णवाक्यं
यतिः संसिद्धौ पुनः यतते.
हा संसिद्धौ पुनः यतते, समीचीनं. शोभा भगिनी अग्रे.
त्वं शुचिः, त्वं शुच्या अथवा शुचौ देशे आसनं स्थापय. शुचिः स्त्रीलिङ्ग इति अहं मन्ये. शुच्याम्
अत्र प्रायशः शुचिः इति अहं चिन्तयामि. तत्र प्रायशः शुचिः अत्र प्रायशः पुल्लिङ्गे अस्ति, देशः इति अस्ति. देशे इति देशः इति पुल्लिङ्गे अस्ति इति मन्ये खलु.
ओके, हा शुच्यां देशे शुचौ देशे
पुल्लिङ्ग
अस्ति.
त्वं शुचौ देशे आसनं स्थापय.
किमर्थम् एतत् वदामि इत्युक्ते भगिनी,
तत्र
देशे त्वं देशे आसनं स्थापय. देशे पुल्लिङ्गे अस्ति, तत्र देशः इति प्रथमविभक्तिरूपं भवति देशः. शुचिः देशः, शुचिः भवति किं विशेषणं? देशः भवति विशेषणं. यत् लिङ्गं यत् वचनं यत् विभक्ति तदेव अत्र.
त्रिषु लिङ्गेषु सन्ति महोदय.
किं
शुचिः त्रिषु लिङ्गेषु सन्ति
अस्मिन् वाक्ये शुचौ अस्ति.
वेणुगोपाल् महोदय, तत्र किं भवति, तत्र एतादृशानि बहूनि पदानि सन्ति, तत्र उत्तमः इति रामः अस्ति चेत् उत्तमः रामः, उत्तमः विशेषणम् अस्ति. सीता अस्ति चेत् उत्तमा सीता इति वदामः. पुस्तकम् अस्ति चेत् उत्तमं पुस्तकम् इति वदामः. अतः किन्तु तत्र प्रायशः शुचिः इति प्रायशः तद् त्रिषु लिङ्गेषु भवति, तादृशरूपमेव तत्र रूपभेदः प्रायशः नास्ति इति मन्ये. किन्तु अत्र शुचिः देशः, अतः शुचिः पुल्लिङ्गे अस्ति. देशः पुल्लिङ्गे अस्ति, अतः शुचिः अपि पुल्लिङ्गे अस्ति अत्र. किन्तु यत् भवान् तत् समीचीनमेव. किं महोदय? यदि इदानीं चिन्तयामः, उत्पीठिका अस्ति, इदानीं किं भवति? शुचिः उत्पीठिका इति अस्ति. इदानीं तस्य सप्तविभक्तिरूपं किं भवति?
शुच्यां.
शुच्याम् उत्पीठिकायां किमपि स्थापयतु इति. समीचीनं. कः उक्तवान् अथवा कः उक्तवती? शोभा भगिनी उक्तवती. अस्तु, रघुपतिमहोदय अग्रे.
कार्याकार्यव्यवस्थितिः शास्त्रम् एव
महोदय न श्रूयते. महोदय न श्रूयते. महोदय, इदानीं श्रूयते. वदतु महोदय.
व्यवस्थितिः इति स्थितिः इति स्त्रीलिङ्गपदमिति अहं मन्ये.
अतः
कार्यकार्यव्यवस्थित्याम् ओके व्यवस्थित्यां शास्त्रमेव प्रमाणम्.
तत्र व्यवस्थितिः व्यवस्थितौ अपि अथवा व्यवस्थित्यां भवति. तत्र कार्य अकार्यव्यवस्थित्यां शास्त्रमेव प्रमाणम् इत्युक्ते किं करणीयं किं न करणीयम् इति तस्य प्रमाणं शास्त्रमेव इति. शास्त्रं वदति किं वयं कर्तुं शक्नुमः किं न न करणीयम् इति. अतः अस्तु, वंशीसुता भगिनी अग्रे.
आं महोदय, तव बुद्धिः अचला तिष्ठति समाधिः, यतोहि अचला स्त्रीलिङ्गे अस्ति, समाधिः अपि स्त्रीलिङ्गे अस्ति इति मन्ये, अहं मन्ये.
समीचीनं भगिनि, अस्तु.
तव बुद्धिः समाधौ अथवा समाध्याम् अचला तिष्ठति.
समीचीनं भगिनि, अस्तु. अग्रे उषा भगिनि.
पण्डितः, ब्राह्मणः, श्वपाकः, गौः च समदर्शी भवति. पण्डितः ब्राह्मणे, श्वपाके, गवी च समदर्शी भवति. ब्राह्मणः अकारान्तः पुंलिङ्ग अस्ति, श्वपाकः अपि अकारान्त पुंलिङ्गः अस्ति, गोशब्दः ओकारान्त पुंलिङ्ग गोशब्द गौः शब्द अस्ति महोदय.
हा हा हा, समीचीनं भगिनि. भवती दृष्टवती वा शब्दमञ्जरी मध्ये?
आं, लिखित
विशेषणं
गृहपाठं लिखामि महोदय.
हा, बहु समीचीनम् अस्ति भगिनि.
गावो गावः, हे गौः, हे गावो, हे गावः.
अस्तु, समीचीनं भगिनि, अस्तु. हा 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 हा, बहु समीचीनम् अस्ति. हा अस्तु, एतत् वयं न कृतवन्तः खलु, केवलम् उकारान्तपर्यन्तं कृतवन्तः. हा, तत्र गो इति न उकारान्तपदं न कृतवन्तः. समीचीनं, धन्यवादः भगिनि. अहं सम्यक् छात्रं प्रश्नं पृष्टवान्. अस्तु, हा, अग्रे भानुचेतिनी महोदय.
ईश्वरः सर्वभूतानां तिष्ठति. ईश्वरः सर्वभूतानां हृद्देशः, देशः अकारान्त पुल्लिङ्गः, हृद्देशे हृद्देशे हृद्देशेषु.
हा, समीचीनं, समीचीनं महोदय. अग्रे वेणुगोपाल महोदय.
आं महोदय, आपत्तयः भयं नास्ति. आपत्तये भयं
न, 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 तत् तत्तु आपत्तयः वीरः, धैर्यं न.
ओ, अस्तु महोदय. आपत्तयः वीरः धैर्यं न जहाति. जहाति. आपत्तये वीरः धैर्यं न जहाति. आपत्तयः इति पुल्लिङ्गे अस्ति. आपत्तयोः द्विवचनं. आपत्तेषु
तत्र प्रायशः तत्र किञ्चित् किञ्चित् महोदय, एकनिमिषं महोदय. सत्यं सत्यं, तत्र तत्र महोदय, वीरः धैर्यं न जहाति इत्युक्ते वीर्यः धैर्यं, तस्मिन् धैर्यः धैर्यं न भवति. कदा, कस्मिन् समये, कस्मिन् सन्दर्भे? आपत्तिः, यदा आपत्तिः भवति. आपत्तिः इति
समीचीनं.
आपत्तयः, आपत्तयः इति बहुवचनम्.
आपत्तिः एकवचनमस्ति.
आपत्तिः, आपत्तिः इति एकवचने. आपत्तिः, आपत्तिः इति पदं जानाति वा भवान्? आपत्तिः
श्रुतवन्तः,
श्रुतवान्, श्रुतवान्. हा, मार्गे मार्गे आपत्तिः अस्ति, सावधानतया गच्छतु इति. हा,
अस्तु,
तत्र मा गच्छतु, आपत्तिः अग्रे अस्ति. हा, अन्यत् अन्येषु अन्ये मार्गे गच्छतु इति. हा, तत्र आपत्तिः इकारान्त, इकारान्तपदम्.
हा, आपत्तिः, आपत्तयोः,
आपत्तिः, आपत्तिः, आपत्तिः
आपत्तिः स्त्रीलिङ्गशब्दः,
स्त्रीलिङ्गशब्दः. हा, मतिशब्दवत्. हा, अतः मतिः, मतिः, मतिः अस्ति चेत् रूपं किं? सप्तमीपदि मत्यां,
मत्योः, मत्योः, मतिषु,
मतिषु, मतिषु, मतिषु, नदी, नदीषु, मति, मतिषु. हा,
अस्तु, मतिषु, नदीषु,
आपत्तिषु
आपत्तिषु
आपत्तिषु वीरः धैर्यं न जहाति जना जहाति इति बहुवचने अस्ति.
तत्र तत्र वाक्ये किम् अस्ति, कर्तृ क्रियापदमस्ति जहाति, कर्तृपदमस्ति वीरः, तद् एकवचने अस्ति.
अस्तु अस्तु.
किन्तु आपत्तयः इति तत् तस्मिन् सन्दर्भे अनेकेषु सन्दर्भेषु इति तादृशरूपम् आपत्तयः आपत्तिषु इति. अस्तु समीचीनं महोदय. इदानीम् अग्रे गीताञ्जलि.
सप्तमे एकवचनरूपं किं महोदय? आपत्ति
आपत्याम्
आपद्यां महोदय
आपत्याम् आपत्याम् आपत्तिः तकारन्त इति न आपत्तिः इकारान्तपदं महोदय.
क्षम्यताम् अहं वदामि आपत्यां वा
तकारः नास्ति तकारः एव किन्तु तकारः तस्य द्वित्वं भवति आपत्याम् इति
महोदय.
गीताञ्जलि भगिनी अग्रे.
चमूः भयं नास्ति दीर्घ ऊकारान्त स्त्रीलिङ्गपदम् अस्ति महोदय. चम्वां भयं नास्ति.
समीचीनं. तत्र द्विवचने रूपं किम् अस्ति?
चम्वां चम्भोः चमूषु.
समीचीनं समीचीनं भगिनि. समीचीनम् अस्तु. अग्रे शोभा भगिनि.
क्षितिः स्त्रीलिङ्गपदम् अस्ति इति मन्ये महोदय? क्षितिः क्षितिः क्षित्याम् अपि क्षितौ क्षित्योः क्षितिषु क्षित्यां जलम् उद्भवति.
क्षितिः इति प्रायशः पृथ्वी एव अस्ति समानार्थकपदम् इति मन्ये.
क्षितिज
क्षिति इति पृथ्वी इति. यदि पृथ्वी स्थाने ह्रस्वैकारपदं इच्छामः क्षितिः इति भवति अथवा भूमिः तदपि. अस्तु समीचीनं भगिनि. अस्तु रघुपतिमहोदय अग्रे.
तेजो राशिः अर्जुनः विश्वरूपं पश्यति. तेजो राश्यां राश्यां विश्वरूपं पश्यति.
राशिः राशिः इति स्त्रीलिङ्गपदम् अस्ति वा
न जानामि अहं दृष्ट्वा. पुल्लिङ्ग अस्ति. अस्तु पुल्लिङ्ग अस्ति चेत् आवु भवति. तेजो तेजो राशौ विश्वरूपं पश्यति.
तत् यदि लिङ्गं न जानीमः महोदय ह्रस्वैकार अस्ति पुल्लिङ्गरूपम् एव वदतु.
अस्तु.
यदि जानीमः तत्र दोषः नास्ति खलु तस्मिन् किं भगिनि वंशीसुद भगिनि किं
तेजो राशौ द्वयोः समानमेव अस्ति वा महोदय?
पुल्लिङ्गद्वयमस्ति. रूपद्वयमस्ति इति. रूपद्वयमस्ति इति कृत्वा यदि स्त्रीलिङ्गपदम् अस्ति किन्तु न जानीमः. अस्तु एतद् वदामः. अस्तु दोषः
नास्ति महोदय.
पुल्लिङ्ग एव अस्ति. अस्तु समीचीनं धन्यवादः. अस्तु दोषः नास्ति. धन्यवादः. अस्तु अग्रे वंशीसुद भगिनि अग्रिम अभ्यासः.
आं महोदय. कोष्टकसाहाय्येन यदोदाहरणं वाक्यानि वदत. अश्रु नेत्रे उदाहरणम् अश्रु नेत्रयोः अस्ति. आं महोदय. इषवः तूनीरे इषवः तूनीरे सप्तमीविभक्तौ अस्ति.
न न सप्तम नेत्रे इति सप्तमीविभक्ति नास्ति खलु.
नपुंसकलिङ्गे अस्ति महोदय. नेत्रे नेत्रयोः द्विवचने अस्ति.
नेत्रे नेत्राणि इति.
इषवः तूनीरयोः तूनीरयोः अस्ति महोदय द्विवचने
तूनीरयोः. किन्तु इषवः इति बहुवचनम् अस्ति इति मन्ये.
आं महोदय तूणीराणां
न न न भगिनि हा तत्र तुणीरे इति किं भवति तुणीरयोः न न तुणीरे इति द्विवचने अस्ति तत् सप्तमी न दत्तमस्ति हा नेत्रे यथा नेत्रे द्विवचने अस्ति
आम् नेत्रं नेत्रे नेत्राणि आं महोदय इषवः तूनीरे इति द्विवचने अस्ति अतः तूनीरयोः
इदानीं वाक्यं किं तूनीरयोः
इषवः तूनीरयोः अस्ति
किन्तु
सन्ति सन्ति
इषुः तूनीरे अस्ति इषवः तूणीरयोः सन्ति तत्र तूणीरद्वयम् अस्ति इति कृत्वा अस्तु अग्रे उषा भगिनि
योद्धारः सेने योद्धारः सेनयोः योद्धारः अस्ति
योद्धारः योद्धारः कीदृशपदं योद्धारः
योद्धारः पुंलिङ्ग अस्ति योद्धारः योद्धारौ योद्धारः
योद्धारः तत्र योद्धा इति एतत् तत्र बहुत्र क्लेशः भवति एतत् योद्धारः तत्र
पितासंख्या
एकादशं पश्यतु एकादशः तृतीय उदाहरणं भवान् योद्धा उषा भगिनि
एषः भवान् योद्धा भवन्तौ योद्धारौ भवन्तः योद्धारः बहुवचने अस्ति
महोदय
योद्धारः सेनयोः सन्ति
तत्र किम् अस्ति अस्मिन् सन्दर्भे किम् अस्ति भगिनि तत्र कौरवाणां सेना अपि पाण्डवानां सेना अतः सेने इति द्विवचने भवति अतः
सेनयोः
सेनयोः सेने इति द्विवचने
बहुवचनं किम् अस्ति महोदय
किमस्ति लता लते
लते लतासु
न न न सत्यं किन्तु लतासु इति तत्र लता लते लतासु इति न खलु तत् प्रथमविभक्तिरूपम् अस्ति प्रथमविभक्तिरूपं सेना सेने सेनाः अतः एकवचने सप्तविभक्तिरूपम् इदानीं वदतु लता इति पदस्य सप्तविभक्तिरूपं
किं
न लता इति लता इति
लतयोः लतासु
एतदेव पेज् 65 मध्ये दत्तमस्ति आकारान्तस्त्रीलिङ्ग शब्दः एतदेव उदाहरणमस्ति सेना इति अस्तु समीचीनम् अस्तु अग्रे अग्रे भानुचित्रि
महोदय सेनानन्तरं किं करणीयम् औषधं
कन्दुकानि इति
कन्दुकानि कन्दुकानि स्यूतौ स्यूतौ सन्ति महोदय
स्यूतौ इति तत्र किम् अस्ति महोदय तत्र सर्वत्र किमपि अस्ति कस्मिन् अस्ति इत्युक्ते तत्र नेत्रे इति द्विवचने अस्ति तुणीरे इति द्विवचने अस्ति सेने इति द्विवचने अस्ति स्यूतौ अपि द्विवचने अस्ति तस्य सप्तविभक्तिरूपम् अश्वकम्
महोदय
स्यूतः कीदृशपदं स्यूतः कीदृशपदम्
अकारान्त पुल्लिङ्गपदं महोदय
अस्तु तत्र
स्यूतयोः
कन्दुकानि
स्यूतयोः सन्ति
तावदेव समीचीनं महोदय अस्तु अग्रे वेणुगोपाल् महोदय
आं महोदय कथाः इतिहासौ कथाः इतिहासयोः इतिहासयोः सन्ति
इतिहासयोः
योः
इतिहास इतिहासः देवः देवयोः इतिहासः
इतिहासयोः सन्ति
सन्ति समीचीनं महोदय अग्रे गीताञ्जलि भगिनि
औषधं कूप्यौ कूप्यौ स्त्रीलिङ्गपदम्
दीर्घैकारः वा ह्रस्वैकारः
दीर्घम् कूपी औषधं कूप्यौ कूप्योः कूप्योः औषधं कूप्योः
क्रियापदम्
औषधं कूप्योः अस्ति
औषधं कूप्योः अस्ति नदी नद्योः द्रोणी द्रोण्योः तत्र कूपी कूप्यौ इति अस्ति कूप्योः इति सप्तविभक्तिरूपं समीचीनं भगिनि अग्रे शोभा भगिनि
कङ्कणानि हस्तौ कङ्कणानि हस्तयोः सन्ति
कङ्कणानि सन्ति कुत्र सन्ति कङ्कणानि
हस्तयोः
समीचीनं हस्तयोः सन्ति समीचीनं रघुपतिमहोदय अग्रे
हा महोदय अश्वाः अयनयोः सन्ति
अश्वाः अयनयोः सन्ति समीचीनं वंशीसुधा भगिनी अग्रे
आं महोदय नूपुरे पादौ नूपुरे पादयोः सन्ति
तत्र नूपुरे इति इदानीं किञ्चित् भेदः अस्ति नूपुरे अपि द्विवचने अस्ति इति
ओ आम् स्तः नूपुरे पादौ स्तः
नूपुरे पादयोः
स्तः
नूपुरे पादयोः
पादयोः स्तः नूपुरे पादयोः स्तः
समीचीनं भगिनि अस्तु तत्र तद् केवलं तद् द्विवचने अस्ति अस्तु अग्रे वेणुगोपाल् महोदय अग्रिम अभ्यासः भवान् पठति वा चतुर्थ अभ्यासः
यतोदाहरणं वाक्यानि रचयत गिरयः उदाहरणं तत्र दत्तमस्ति गिरयः सर्पः गिरीषु सञ्चरति
तत्र गिरयः कीदृशपदमस्ति
गिरयः इति अकारान्त पुल्लिङ्गपदम् अस्ति इति
एकवचने अथवा बहुवचनम् अस्ति गिरयः तत्र रूपं दृष्ट्वा तत्र गिरिषु इति अस्ति गिरिषु इति बहुवचने अस्ति अतः गिरयः अपि बहुवचने अस्ति तत्र गिरिषु कुत्र भवति गिरिषु इति रूपं सप्तविभक्तिरूपम् अस्ति तद् कस्य तादृशपदं कुत्र अस्ति गिरिषु इति तत्र पेज् 65 पद पश्यतु तत्र गिरिषु शु इति अस्ति अन्ते तस्य पूर्वम् इकारः गिरिषु इति अस्ति तत्र पेज् 65 मध्ये पश्यतु अन्तेषु अस्ति अग्निषु अस्ति गुरुषु अस्ति कर्तृषु अस्ति सेनासु इति अस्ति तत्र किं भवितुम् अर्हति
गिरिषु तत्र गिरयः बहुवचनम् अस्ति महोदय
कस्य पदस्य बहुवचनरूपं
गिरिः
समीचीनं महोदय गिरिः गिरयः
अस्तु
इदानीं किमस्ति गिरयः इति बहुवचने अस्ति
बहुवचने
गिरिषु
गिरिषु इति
समीचीनं महोदय अग्रे कन्दराः तदपि तद् बहुवचने अस्ति
बहुवचने अस्ति कन्दराः कन्दरसु इति
कन्दरः इति पुल्लिङ्गपदं
पुल्लिङ्गपदं कन्दराः इति बहुवचनं बहुवचने अस्ति कन्दराः इति
देवः इति शब्दस्य किं रूपं किं सप्तमीविभक्तिरूपं
देवः देवे देवयोः देवेषु
अतः कन्दरः किं भवति
कन्दरः कन्दरेषु
कन्दरेषु कन्दराः बहुवचने अस्ति कन्दरेषु इदानीं समीचीनम् इदानीं वाक्यं किम् अस्ति किं महोदय सर्पः
सर्पः कन्दरेषु सञ्चरति सञ्चरति
यत्र यत्र सर्पः सञ्चरति इति तत्र दत्तमस्ति
तत्र कन्दराः कन्दरेषु सञ्चरन्ति इति अस्ति
न सर्पः अस्ति तत्र सर्पाः सर्पाः कन्दरेषु तदपि कन्दरः इत्युक्ते किं कोऽपि वदति वा
केव् महोदय
हा केव् समीचीनं हा अस्तु अग्रे गीतञ्जलि भगिनि
आं महोदय गुल्माः गुल्मः गुल्मौ गुल्माः प्रथमविभक्ति गुल्मेषु सर्पः गुल्मेषु सञ्चरति
गुल्मः इति पुल्लिङ्गे अस्ति इति मन्ये बुश् इति गुल्मः इत्युक्ते बुश् इति चिन्तयामि गुल्मः इति प्रायशः पुल्लिङ्गे अस्ति वा कोऽपि वदति वा तत्र गुल्मः इति गुल्मेषु अस्तु समीचीनं गीताञ्जलि भगिनी पुनः एकवारं वाक्यं वदतु तत्र
सर्पः गुल्मेषु सञ्चरति
इति अस्ति समीचीनं भगिनि अग्रे शोभा भगिनि
गुहाः गुहा स्त्रीलिङ्गपदम् अस्ति सर्पः गुहासु सञ्चरति
समीचीनं भगिनि रघुपति महोदय अग्रे
महोदय तरवः तरु सर्पः तरुः इति
तरुमूले
तरु तरु पुल्लिङ्ग् अस्ति वा तरुषु सर्पः तरुषु सञ्चरति
महोदय सर्पः लताः लता इति स्त्रीलिङ्गपदमस्ति बहुवचने अस्ति अतः लतासु सर्पः लतासु सञ्चरति
समीचीनं भगिनि अग्रे उषा भगिनि
बिलानि सर्पः बिलेषु सञ्चरति
सर्पः बिलेषु सञ्चरति
नपुंसकलिङ्ग अस्ति बिलं
समीचीनं बिलम् इत्युक्ते
नेट् अस्ति न
अग्रे बनचितनी महोदय
वल्मीकानि वल्मीकम् इति अकारान्त नपुंसकलिङ्गम् इति मन्ये महोदय वल्मीकानि सर्पः वल्मीकेषु सञ्चरति
समीचीनं महोदय अग्रे वेणुगोपाल् महोदय
शाकाः शाकाः भोजनं भोजने अस्ति शाकासु इति सप्तमी भोजनं शाकासु सर्पः शाकासु सञ्चरति
सर्पः शाकासु सञ्चरति समीचीनम् इदानीं सर्पः कुत्र कुत्र सञ्चरति इत्युक्ते सप्तमीविभक्तिरूपम् आवश्यकमस्ति भवान् कुत्र कुत्र सञ्चरति इत्युक्ते उत्तरे सप्तविभक्तिरूपपदं सप्तविभक्तिरूपम् आवश्यकम् अस्ति. अस्तु, इदानीं तस्य सप्तविभक्ति तस्य विशेषप्रयोगः इति, इदानीं रूपं दृष्टवन्तः, इदानीं प्रयोगः कीदृशम् इति पश्यामः.
महोदय, वाल्मीकः पुल्लिङ्गशब्दवत् अस्ति वा महोदय?
तत्र वाल्मीकिः इति तत्र
तत्र महोदय
तद्दितपदम् इति यद्वदामः तादृश पदमस्ति,
तत्रैव वाल्मीकिशब्दः अभवत् महोदय. सर्पः, धन्यवादः. बहूनि स्थानानि भवन्ति, अतः एव मम सप्तमी प्रयोगस्य उदाहरणे अस्ति.
सत्यं सत्यं भगिनि. अस्तु, अग्रे गीताञ्जलि भगिनि अग्रे पठति वा तत्र.
आं महोदय, सप्तमी विभक्तिः विशेषप्रयोगाः. यथोदाहरणं वाक्यानि वदत. विशेषरूपः आधारः. ओ सोरि, विषयरूपः, क्षम्यता महोदय, विषयरूपः आधारः. उदाहरण, मम गीतायां
केवलं एतत् पश्यतु, अभिरुचिः अपि इति विषयः आधारः. अधोभागे यदस्ति तद् आधारः, यत्र उप अभिरुचिः अस्ति इति गीता. इदानीं वाक्यं किम् अस्ति?
उदाहरण, मम गीतायाम् अभिरुचिः अस्ति.
यत्र यत्र ये अभिरुचिः, मतिः, विश्वासः, अभिमानः, रुचिः, भक्तिः, प्रीतिः, अनासक्तिः, एतत् वक्तुम् इच्छामः, कस्मिन् अस्ति इति प्रश्नः भवति. उत्तरं भवति, हा एतस्मिन् अस्ति, अथवा गीतायाम्, अथवा वृक्षे, किमपि. तत्र सप्तविभक्तिरूपस्य प्रयोगः भवति. अस्तु भगिनि, भवती एव अग्रिम तत्र उदाहरणं दृष्ट्वा मतिः इति.
मम स्वधर्मे मतिः अस्ति.
तत्र प्रायशः एतदपि कर्तुं शक्नुमः. तत्र उदाहरणवाक्यं यद् दत्तमस्ति तद् मम अभिरुचिः गीतायाम् अस्ति. मम मतिः स्वधर्मे
मम मतिः स्वधर्मे अस्ति.
कस्य अभिरुचिः? मम अभिरुचिः. अतः मम अभिरुचिः एकत्र भवति चेत् सुलभतया अवगन्तुं शक्नुमः.
अस्तु महोदय.
मम मतिः स्वधर्मे अस्ति. अस्तु, स्वधर्मे अस्ति. अस्तु, तत्र शोभा भगिनी अग्रे अग्रिमं करोति वा?
महोदय, मम विश्वासः गुरौ अस्ति.
मम विश्वासः गुरौ अस्ति. समीचीनं भगिनि. अस्तु, अग्रे उषा भगिनि.
आं महोदय, मम अभिमानः संस्कृत्याम् अथवा संस्कृतौ
अस्ति.
अस्ति,
समीचीनं भगिनि. समीचीनं. बालचेतनी महोदय,
मम रुचिः कार्यं नपुंसकलिङ्गि पदं कार्ये
अस्ति. कार्ये अस्ति, समीचीनं. समीचीनं. वेणुगोपाल महोदय अग्रे.
आं महोदय, मम रुचिः मम भक्तिः मातारि मातारि
मातरि मातरि
मातरि मातरि
मातृ मातृ ऋकारान्तपदम् अस्ति
मातृ अस्तु मातरि अस्ति मम भक्तिः मातरि
मातरि वयं तत्र प्रायशः मातृ इति शब्दं कृतवन्तः खलु पेज् 66 मध्ये अस्ति गतवर्गे कृतवन्तः मातरि इति अस्तु अग्रे गीताञ्जलि रघुपति महोदय अग्रे
प्रीतिः अस्तु मम प्रीतिः संस्कृते अस्ति
अथवा अत्र मम अथवा अस्माकम् इति दत्तम्
अस्माकं प्रीतिः संस्कृते संस्कृते स्मः संस्कृते
तत्र प्रीतिः इति अस्ति एकवचने
अस्तु अस्तु सन्ति अस्ति
अस्ति
एव अस्माकं
वंशीसुधा भगिनी अन्तिमं
मम अनासक्तिः परधर्मः मम अनासक्तिः परधर्मे अस्ति वा
नास्ति
नास्ति परधर्मे अस्ति
अथवा एतदपि वक्तुं शक्नुमः
मम आसक्तिः धर्मे अस्ति
अथवा अत्र सत्यं किन्तु अत्र एतद् वाक्यं मम अनासक्तिः परधर्मे अस्ति अथवा परधर्मे मम अनासक्तिः अस्ति यत्र वयं यत् वयं महत्त्वं स्थापितुम् इच्छामः तत् परधर्मे मम अनासक्तिः अस्ति अथवा मम अनासक्तिः परधर्मे अस्ति अस्तु इदानीं एतादृशानि वाक्यानि भवन्तः अपि रचयन्तु इदानीं तत्र यत् अस्ति तस्य एव किञ्चित् परिवर्तनं कृत्वा वदन्तु तत्र कः रघुपतिमहोदय
आम् महोदय
एतदेव अभिरुचिः मतिः विश्वासः तद् उपयुज्य किमपि तस्य अथवा रामस्य इति
अस्तु अर्जुनस्य गीतायाम् अभिरुचिः आसीत्
आसीत् समीचीनं अस्तु अग्रे भानुचेतनी महोदय
जनानां विश्वासः गुरौ सन्ति
विश्वासः इति अस्ति अतः अस्ति एव अस्ति जनानां विश्वासः जनानां बहुवचने अस्ति किन्तु विश्वासः एकवचने अस्ति तदेव कर्तृपदम्
जनानां विश्वासः गुरौ अस्ति
समीचीनं महोदय अग्रे शोभा भगिनी
भारतीयः इति प्रथमविभक्तौ अस्ति वा महोदय
भारतीयः
भारतीयः बहुवचनं किम् अस्ति भारतीयः
किन्तु अत्र षष्ठी विभक्ति बहुवचनरूपम् आवश्यकं भगिनि
आं महोदय
वक्तुमिच्छामि
भारतीयानां तेषां संस्कृत्यां अस्ति
भारतीयानां
अभिमानः तेषां संस्कृतौ अस्ति
संस्कृतौ अस्ति समीचीनं भगिनि भारतीयानाम् अभिमानः संस्कृतौ अस्ति समीचीनं भगिनि वंशीसुधा भगिनी अग्रे
आं महोदय अस्माकं भक्तिः मातृषु भवन्ति
भक्तिः इति एकवचने अस्ति
अस्माकं भक्त्याः महोदय
भक्तिः इति मतिः शब्दवत् मतिः मतिः मतयः
भक्तयः अस्माकं भक्तयः मातृषु भवन्ति
मातृषु अस्तु मातृषु भवन्ति समीचीनं भगिनि
तत्र भक्ति एव सम्यक् अस्ति वा महोदय
भक्तिभावना
किन्तु किन्तु यद् तत्र यदि किन्तु व्याकरणरीत्या व्याकरणरीत्या दोषः नास्ति किन्तु अवगच्छामः वंशीसुधा भगिनी तत्र बहुवचनरूपस्य प्रयोगः प्रयोगं कर्तुम् इष्टवती अस्तु तावदेव भक्तयः इति अस्तु अग्रे गीताञ्जलि भगिनि
सर्वेषां प्रीतिः संस्कृते अस्ति
अस्तु भगिनि समीचीनं अत्र उषा भगिनी अग्रे छात्रस्य अथवा छात्राणां
छात्राणां संस्कृत अभ्यासं
छात्राणां किं
संस्कृतपठन
न आसक्तिः वा किं छात्राणां किं छात्राणाम् आसक्तिः
संस्कृतपठने
अस्ति आसक्तिः इति उक्तवती छात्राणां संस्कृतपठने आसक्तिः अस्ति अथवा छात्राणां संस्कृत अभ्यासे आसक्तिः अस्ति समीचीनं वेणुगोपाल् महोदय वक्तुमिच्छति वा किमपि एतादृशं वाक्यमेकं वदतु
जनानां प्रीतिः संस्कृतं संस्कृते अस्ति
जनानां प्रीतिः संस्कृते समीचीनम् अस्ति अस्तु अत्र एतद् यदा वक्तुम् इच्छन्ति अभिरुचिः मतिः विश्वासः अभिमानः तत् सर्वत्र कस्मिन् अस्ति इति तत्र सप्तविभक्तिरूपम् आवश्यकम् इति मनसि स्थापयन्तु अस्तु
महोदय अत्र प्रति यदा प्रतियोजनेन द्वितीया विभक्ति संस्कृतं प्रति अस्ति इति सम्यक् भवति वा
संस्कृतं प्रति
मम रुचिः अस्ति
माता प्रति मम रुचिः अस्ति इति प्रायशः तत् सम्यक् एव महोदय द्रष्टव्यम् अस्ति किन्तु प्रायशः तदपि साधु इति मन्ये प्रायशः तदपि साधु इति मन्ये महोदय किन्तु द्रष्टव्यम् अस्ति एकवारं दृष्ट्वा वदामि
तत्र इति प्रति यदि उपयोगं कुर्मः तत्र सप्तविभक्तौ इति पदं नास्ति न महोदय
संस्कृतं प्रति संस्कृतं प्रति मम विश्वासः अस्ति इति वक्तुं शक्नुमः वा इति चिन्तनीयमस्ति प्रायशः साधु किन्तु न जानामि अस्तु अग्रे अग्रे वंशीसुधा भगिनी अग्रिम अभ्यासः पठति वा
आम् महोदय स्वस्य वर्धनाय कुत्र कुत्र आसक्तिः भवतु कुत्र कुत्र मास्तु इति निर्णयत यथा धर्मे आसक्तिः भवतु महोदय द्वितीयमस्ति लोभे अनासक्ति भवतु अनासक्तिः भवतु
समीचीनम् अस्तु रघुपति महोदय
महोदय मोहे आसक्ति मास्तु
अस्तु शोभा भगिनी
साधनायाम् आसक्तिः भवतु
साधनायाम् आसक्तिः भवतु समीचीनं भगिनी गीताञ्जलि भगिनी
साधनायां
शोभा भगिनी उक्तवती
क्षम्यता महोदय पठने आसक्तिः भवतु
पठने आसक्तिः भवतु अस्तु वेणुगोपाल महोदय
कीर्तौ आसक्तिः मास्तु
कीर्तौ आसक्तिः
भानुचतुनी
महोदय भानुचतुनी महोदय अस्तु उषा भगिनी
पुण्ये आसक्तिः भवतु
पुण्ये
आसक्तिः
पुण्ये समीचीनमेव अस्ति पूर्णवाक्यं भगिनि
पुण्ये आसक्तिः भवतु
पुण्ये आसक्तिः भवतु समीचीनम् अस्तु वंशीसुधा भगिनी अग्रे
आं महोदय यज्ञे अभिरुचि प्रदर्शयतु
यज्ञे अभिरुचिः प्रदर्शयतु समीचीनं भगिनि अस्तु रघुपति महोदय
महोदय सत्सङ्गे आसक्तिः भवतु
सत्सङ्गे आसक्तिः भवतु शोभा भगिनी
कीर्तौ आसक्तिः मास्तु
कीर्तौ कीर्तिः कीर्तौ समीचीनं गीताञ्जलि भगिनी
पापेषु आसक्तिः मास्तु
अस्तु वेणुगोपाल महोदय
पठने आसक्तिः भवतु
पठने इति कृतम् अस्तु अस्तु भानुचितनी महोदय वदति वा इदानीं अस्तु भानुचितनी
महोदय हरि ओं महोदय शान्तौ आसक्तिः भवतु
शान्तौ आसक्तिः भवतु
शान्त्यामपि
सत्यं 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 भगिनि उषा भगिनी भवती किं किं
सेफ् वे महोदय
उषा भगिनी तत्र केवलं किं भोगः इति एव सर्वं कृतवन्तः इति मन्ये अथवा भोगः त्यागः कृतवन्तः वा वयं
सत्सङ्गः अपि न कृतवन्तः
त्यागे
आसक्तिः भवतु
अस्तु अग्रे वेणुगोपाल महोदय भोगः एव अस्ति तद् उपयुज्य
भोगे आसक्तिः मास्तु
तावदेव अस्तु एतावत् वयं किं कृतवन्तः सप्तविभक्तिरूपं दृष्टवन्तः किन्तु तत्र सः इति तादृशपदानां न अकारान्तपुल्लिङ्ग नामपदस्य सप्तविभक्तिरूपं दृष्टवन्तः इदानीं सः अथवा एषः तस्य तादृश सर्वनामपदानां तादृश किं तत्र एषः इति तादृशपदानां सप्तविभक्तिरूपम् इदानीं दत्तमस्ति तत् पदम् इति तत्र शोभा भगिनी पठति वा तत्र अथवा शोभा भगिनी पठितवती क्षम्यताम् उषा भगिनी पठितवती वा अद्य अस्तु महोदय
एतानि सप्तविभक्ति
अस्तु पठतु भगिनि
एतानि सप्तमी विभक्तिरूपाणि सावधानतया पठत तत् पुंलिङ्गे नपुंसकलिङ्गे च तस्मिन् तयोः तेषु
तत्र पुल्लिङ्गे नपुंसकलिङ्गे च इत्युक्ते तत्र प्रथमविभक्तिरूपं किम् अस्ति तत् पदस्य
सप्तमविभक्ति
प्रथमविभक्तिरूपम् अस्ति सः तौ सप्तमविभक्तिरूपम् अस्ति
तस्मिन् तयोः तेषु
तेषु नपुंसकलिङ्गे तत् पदस्य रूपं किम् अस्ति प्रथमविभक्तिरूपं
तत्
तत् एतानि सप्तविभक्तिरूपम् अस्ति तस्मिन्
तस्मिन् तयोः तेषु
तेषु हा इदानीं स्त्रीलिङ्गे किम् अस्ति
स्त्रीलिङ्गे तस्यां तयोः तासु प्रथमाविभक्ति अस्ति सा ते ताः
हा सा ते ताः समीचीनं भगिनि हा अस्तु अग्रे भगिनि
पुंलिङ्गे तत्र अनुस्वारः विद्वं भवति वा पुंलिङ्गे
लिङ्गे द्वित्वम् अपि मया दृष्टम्
आकार अग्रे अकारः अस्ति चेत् तस्मिन् अपि नक द्वित्वं भवति तस्मिन् अपि अहं दृष्टवान् अहं
पुल्लिङ्गे इति
नियमः नास्ति नियमः अहं न जानामि
न जानामि महोदय
नियमः न जानामि बट् अस्तु द्वित्वं भवति
द्वित्वमपि दृष्टवान् इति मन्ये हा पुल्लिङ्गः इति अपि दृष्टवान् इति मन्ये किन्तु हा
पुल्लिङ्गः अस्ति महोदय लिङ्गः अस्ति लकार चन्द्रबिन्दु लकार भवति तदा अनुनासिक लिङ्ग् पुल्लिङ्गः भवति तदा यत्र अनुस्वारः अस्ति अनुनासिक द्वे रूपं भवति अनुस्वारस्य यै अनुस्वारस्य लिङ्ग् लकार अनुनासिकलकारः भवति तदा पुल्लिङ्गः भवति अनुस्वारः न भवति तदा एव
अस्तु 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 महोदय भानुचतुर्नि महोदय उत्तरं प्राप्तं वा
अस्तु महोदय
अस्तु तत्र वेणुगोपाल् महोदय अग्रे तत्र एतत् इति पदस्य
आम् महोदय एतत् पुल्लिङ्गे नपुंसकलिङ्गे च एतस्मिन् एतयोः एतेषु
सप्तमस्ति पुल्लिङ्गे प्रथमविभक्तिरूपं किम् अस्ति एतत् पदस्य
एषः एतौ एताः
एते एषः एतौ एते
एते
इदानीं तत्र एतत् पदस्य नपुंसकलिङ्गरूपं किमस्ति प्रथमविभक्तिरूपम्
एतत् एतत् एतौ एतानि
न न एतत् एतानि समीचीनं द्विवचने तत् ते तानि इति अस्ति
तत् एतानि अस्तु अस्तु एतत् एते एतानि
हा तत्र वनं वने वनानि तत् ते तानि इदानीं स्त्रीलिङ्गरूपं पठतु महोदय तत्र
श्रीलिङ्गे एतस्याम् एतयोः एतासु
हा तत्र प्रथमविभक्तिरूपं किम् अस्ति सः सः इति एषः भवति सा इति किं भवति दूरमस्ति चेत् सा अभ्यासपुस्तके कृतवन्तः महोदय सा सीता दूरे अस्ति हा किन्तु एषा भगिनी
एषा एषा एते एताः
हा समीचीनं तस्य सप्तमीविभक्तिरूपम् अस्ति एतस्याम्
एतस्याम् एतयोः एतासु
हा एतासु इति समीचीनं हा अग्रे शोभा भगिनि
किं पुंलिङ्गे नपुंसकलिङ्गे च कस्मिन् कयोः केषु स्त्रीलिङ्गे कस्यां कयोः कासु किं पदस्य कः कौ के अपि नपुंसक अपि कः कौ किं के कानि अस्ति
किं के कानि अस्ति इदानीं स्त्रीलिङ्गे रूपं किम् अस्ति
स्त्रीलिङ्गे कस्यां का अस्ति
समीचीनं भगिनि रघुपति महोदय अग्रे
पुल्लिङ्गे नपुंसकं भवत् भवति भवतोः भवत्सु भवत्यां भवत्योः भवतीषु किं करणीयं महोदय
तत्र केवलं रूपम् अस्ति किन्तु तत्र
पुल्लिङ्गरूपं
किम् अस्ति
भवान्
भवान् भवन्तौ भवन्तः
भवान् भवन्तौ भवन्तः इति रूपमस्ति तस्य सप्तमीविभक्तिरूपमस्ति भवति
भवतोः भवत्सु
भवत्सु इति अपि नपुंसकलिङ्गे किं भवति
नपुंसकलिङ्गे भवति तकारे एव
भवति इदानीं त्यजामः न त्यजामः महोदय अस्तु स्त्रीलिङ्गे किं वदतु
भवति 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 एकनिमिषं भवति नदी नद्यो ओके भवति भवत्यौ भवत्यः
नद्यः
नदी नद्यौ नद्यः भवत्यौ भवत्यः भवति भवत्यो भवत्यः भवत्यां भवत्योः भवतीषु
भवतीषु इति रूपं भवति समीचीनं अग्रिवंशी श्रुता भगिनि
आं महोदय सर्व पुल्लिङ्गे नपुंसकलिङ्गे च सर्वस्मिन् सर्वयोः सर्वेषु अत्र सर्वः पुल्लिङ्गशब्दवत् अस्ति सर्वः सर्वे क्षम्यतां सर्वः सर्वौ सर्वे किञ्चित् भेदः अस्ति महोदय सर्वः सर्वौ सर्वे नपुंसकलिङ्गे सर्वं सर्वे सर्वाणि सर्वा स्त्रीलिङ्गशब्दः अस्ति सर्वस्यां सर्वयोः सर्वासु सर्वा सर्वे सर्वाः इति स्त्रीलिङ्गपदं त्रीणि रूपाणि भवन्ति
समीचीनं भगिनि अस्तु बाणचितनी महोदय
आं महोदय अस्मद् इति शब्दं महोदय अहम् आवां वयम् इति प्रथम विभक्ति महोदय रूपं मयि आवयोः अस्मासु इति सप्तमी विभक्ति रूपाणि
समीचीनं
युष्मद् युष्मद् शब्दं तु त्वं युवां यूयम् इति रूपाणि सप्तमी विभक्ति त्वयि युवयोः युष्मासु
युष्मासु इति अस्ति समीचीनं
महोदय महोदय अत्र सर्व इति न जानामि किमर्थं तत्र एकवचने अपि अस्ति सर्व नित्यबहुवचनं नास्ति इति एकवचने बहुवचने इति सर्व साधारणतया सर्व इति बहुवचने एव भवति न लोके व्यवहार
प्रायशः किन्तु उत्तमप्रश्नः अस्ति महोदय उत्तरं न जानामि अन्य कोऽपि जानाति वा समीचीनप्रश्नः एव किमर्थं तत्र बहु
ब्रह्म इति शब्दमस्ति एक एव ब्रह्म अस्ति किन्तु सप्तमी
अस्तु अस्तु सत्यं किन्तु सर्वपदस्य तत्र उत्तरः अस्ति इति मन्ये महोदय उत्तरम् अस्ति किञ्चित्
महोदय समान एव एकः एकौ एके अस्ति वा
यः न न तत्र नास्ति एक एक एव नित्य एक
किन्तु सर्व इति किमर्थं तत्र तस्य एकवचनरूपम् अस्ति इति प्रायशः यदि किञ्चित् अन्वेषणं कुर्मः उत्तरं प्राप्नुमः इति मन्ये महोदय
महोदय सर्व विशेषण तथा भवति वा सर्वप्रकारकः सर्वाः प्रकारकाः इति किमपि विशेषण अस्ति तदा भवति वा
यदि
सर्वप्रकारकः
प्रायशः महोदय
फलानि अस्ति
किञ्चित् तादृशरूपं प्रायशः अस्ति अस्तु तत् किन्तु उत्तरम् अस्ति तस्य
भवानेव
यदि यदि प्राप्नोति वदतु महोदय
महोदय आङ्ग्लभाषा पीपल् पीपल्
सर्व इत्युक्ते आल्
बहुवचने अस्ति आङ्ग्लभाषायां
तु पीपल् अपि अपि नित्यं बहुवचनम् अस्ति महोदय किन्तु पीपल् इत्युक्ते एकप्रकार पीपल् किन्तु पीपल्स् इत्युक्ते
पीपल् फ्रम् डिफरेण्ट् कण्ट्रीस्
तादृश तादृश प्रायशः अत्र संस्कृते अपि भवितुम् अर्हति. स समीचीनं भगिनि, सत्यं तादृशं किमपि अस्ति अत्रापि. हा, नो चेत् तस्य किमर्थं तत् तस्य एकवचनरूपम् अस्ति खलु. हा, कुत्रापि तस्य प्रयोगः भवति एव इति मन्ये. हा, अस्तु, किञ्चित् समये एव अस्ति तत्र. हा, तत्र हा अग्रिम अभ्यासः कर्तुं शक्नुमः इति मन्ये, सप्तम अभ्यासः. तत्र एतावत् कः न पठितवान् अथवा कः न पठितवती? रघुपतिमहोदय न पठितवान्. हा महोदय,
महोदय, सप्तम अभ्यासः. यथोदाहरणं वाक्यानि रचयत. उदाहरणं बालः एतस्मिन् विनयं प्रदर्शयति. बालः एषः एतस्मिन् विनयं प्रदर्शयति.
समीचीनम्. इदानीं तत्र अन्यत् अग्रिमं परं.
बालः बालः तस्मिन् सः तस्मिन् आदरं प्रकटयति.
हा, प्रकटयति. समीचीनं महोदय. बालः तस्मिन् आदरं प्रकटयति. समीचीनं. हा, शोभा भगिनी अग्रे.
तस्यां वा महोदय.
हा, अग्रे तत्र बालः भवान् इति अस्ति.
हा, ओ क्षम्यतां महोदय,
अग्रिमपुटे.
बालः एतस्मिन् विनयं प्रदर्शयति. एषः कृतवान्
तस्मिन् आदरं प्रकटयति. इदानीं बालः भवान् इति अस्ति तत्र.
बालः
भवान् शब्दरूपं
भवति. बालः भवति आदरं प्रदर्शयति.
तदपि तादृशरूपं. समीचीनं. तत्र किमपि वयं वक्तुं शक्नुमः इति मन्ये. तत्र
भवती विनयं विनयं प्रदर्शयति महोदय.
हा, तदपि तदपि समीचीनं. हा, भवती विनयं प्रदर्शयति. समीचीनं भगिनि. हा, गीताञ्जलि भगिनि अग्रे.
त्वं त्वं त्वयि त्वयि वात्सल्यं प्रकटयति.
प्रकटयति. हा, समीचीनं भगिनि. हा, वेणुगोपाल् महोदय.
कः प्रेम कः प्रेम कस्मिन् बालकः कस्मिन् प्रेम विनयं प्रेम दर्शयति प्रदर्शयति.
समीचीनं. उषा भगिनि
महोदय, प्रेम प्रेम इति किमस्ति? प्रेम इति अपि नपुंसकलिङ्गे अस्ति वा? गीतं यथा विनयम् आदरम् इति भाव प्रेमं वा प्रेमः वा प्रेम एव
त्रिषु लिङ्गेषु अस्ति वा महोदय?
प्रेम प्रेम भाव अस्ति.
अग्रिमवर्गे वदामि महोदय. वदामि. प्रायशः न जानामि भगिनि, द्रष्टव्यम्
अहं पश्यामि महोदय. स्पोकन् डिक्शनरी प्रेमन्.
अस्तु अस्तु. हा अस्तु, उत्तरं प्राप्तं महोदय. अस्तु. हा, उषा भगिनि अग्रे.
बालः भवति स्नेह बालः भवति भवत्यां स्नेहं प्रदर्शयति.
हा, समीचीनं. हा, वंशीसुधा भगिनि.
आं महोदय, बालः त्वयि वात्सल्यं प्रदर्शयति. अभवत् वा महोदय? तत् तस्यां बालः तस्यां नम्रतां प्रदर्शयति.
इति अत्र अनेकानि वाक्यानि रचितुं शक्नुमः. कानि एव वयं कृतवन्तः, किन्तु अन्यानि अनेकानि वयं कर्तुं शक्नुमः अत्र. अस्तु, किन्तु समयः जातः. अन्यप्रश्नः अस्ति वा? अस्तु अग्रिमवर्गे मिलामः सर्वेभ्यो नमः नमस्कारः
हरि ओं महोदय धन्यवादः
नमस्कारः महोदय नमस्कारः